एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना प्रधानमन्त्री पदस्य कृते स्वोत्तम प्रस्तुतम् वर्तते। नेपाली कांग्रेस नेकपा एमाले दलयोः 65-अधिकशतस्य सांसदानाम् हस्ताक्षरैसहितम् अध्यक्षेण ओलिना ह्य रात्रौ आसन्न दशवादने राष्ट्रपतेः पौडेलस्य समक्षम् राष्ट्रपति पदस्य कृते स्वोत्तम प्रस्तुतमस्ति। तत्पूर्वम् ह्यैव राष्ट्रपतिना पौडेलेन नूतन सर्वकारस्य संघटनाय दलानि आहूतानि आसन्। राष्ट्रपतिना पौडेलेन नेपालस्य संविधानस्य 67 धारायाः द्वितीयोपधारायाः अनुसारेण नवीनस्य सर्वकारस्य संघटनाय दलानि आहूतानि आसन्। संविधानस्य 67 धारायाः द्वितीयोपधारायाः द्वयोस्तदधिकानां वा दलानां समर्थनेन सर्वकारस्य संघटनार्थं स्वत्वस्य प्रस्तुते राष्ट्रपतिना पौडेलेन श्वः रविवासरे सायं 5 समयः प्रदत्तः आसीत्। प्रतिनिधि सभायां विश्वासस्य मतग्रहणस्य प्रक्रियायाः समाप्तेरनन्तरं प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन राष्ट्रपतिना रामचन्द्र पौडेलेन सह मेलवार्ता विहिता अस्ति। विश्वासस्य मतस्य प्राप्तौ असफलतायाः प्राप्तेः अनन्तरं प्रधानमन्त्री प्रचण्डः शीतल निवासवर्तिनी राष्ट्रपति भवनं प्राप्तवान् आसीत्। तदवसरे प्रधानमन्त्री प्रचण्डः स्वस्य कार्यकाले सर्वकाराय विहितं सहयोगं प्रति राष्ट्रपतये पौडेलाय धन्यवादं व्यक्तवान्। तत्पूर्वं प्रतिनिधिसभायाः ह्यस्तनोपवेशे प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन प्रस्तुतः विश्वासस्य मतसम्बद्धः प्रस्तावः बहुमतेन अस्वीकृतः आसीत्। प्रधानमन्त्रिणा प्रस्तुतस्य विश्वासस्य मतस्य प्रस्तावस्य पक्षे 63 विपक्षे च 194 व्यक्तानि आसन्। प्रतिनिधिसभायां मतविभाजनस्य परिणामं श्रावयन् सभामुख देवराज घिमिरे ह्यस्तनोपवेशे 100 सांसदाः उपस्थिताः एकं मतं तटस्थम् आसीदिति अश्रावयत्। तत्पूर्वं प्रतिनिधिसभायाः ह्यस्तनोपवेशे विश्वासस्य मतसम्बद्धं प्रस्तावं प्रस्तुवन् प्रधानमन्त्री प्रचण्डः सुशासनाय आत्मनः दृढतायाः कारणात् नूतन सत्ता समीकरणस्य निर्माणस्य परिस्थितिः सृष्टेति अभाषत। प्रधानमन्त्री प्रचण्डः सहमतेः विपरीततया संविधान संशोधनस्य नामनि राष्ट्रं द्वन्द्वे न नेतुम् अनुरुणत्। प्रधानमन्त्री प्रचण्डः स्वनेतृत्व सर्वकारेण संविधानस्य क्रियान्वयनाय संघीयतायाः सबलीकरणाय अर्थतन्त्रस्य सुधाराय पुनरुत्थानाय च उत्पादकत्व वृद्धये वृत्ति उपार्जनाय सुशासनस्य प्रवर्धनाय सार्वजनिक सेवा प्रवाहस्य सुधाराय च महत्वपूर्ण भूमिका निर्व्यूढा अस्ति इति अवोचत्। समावेशितायाः निराशायैव नवीनं सत्ता गठबन्धनं विहितमस्ति इति चर्चयन् असौ अगदत् राष्ट्रियसभायाः विपुल दलं नेकपा माओवादी केन्द्रस्य उपेक्षा असम्भवी वर्तते। प्रधानमन्त्री प्रचण्डः नेकपा एमाले दलेन सर्वकाराय दत्तस्य समर्थनस्य प्रत्यावर्तनानन्तरं सर्वकारेण दीर्घकालिक महत्वस्य निर्णयः नियुक्तिश्च न विहितेति समस्पष्टयत्। विश्वासस्य मतसम्बद्धं प्रस्तावम् आधृत्य विहिते विमर्शने नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीयु रमेश लेखकः देशे अस्थिरताया निराकरणाय आर्थिक स्थायित्वस्य स्थापनायै च प्रमुखानि दलानि एकत्र आगतानि सन्ति इति अवोचत्। नेकपा एमाले दलस्य सचिवः योगेश कुमार भट्टराई देशम् अग्रे नेतुम् संविधान संशोधनस्य विषयः उत्थापितोऽस्ति इति अभाषत। तत्पूर्वं सांसदः भूस्खलनस्य जलविप्लवस्य च कारणेन देशस्य विभिन्नेषु भूभागेषु भूतां जनधन नयो क्षतिं प्रति गभीरतायै सर्वकारस्य ध्यानम् आकृष्टवन्तः। प्रतिनिधिसभायाः अपरोपवेशः श्वः रविवासरे दिवात्रिवादने वस्ता। राष्ट्रपतिना रामचन्द्र पौडेलेन अपर सर्वकारस्य असंघटनम् यावत् मन्त्री परिषदा विधातव्यानां कार्याणां संचालनस्य दायित्वं प्रधानमन्त्रिणे प्रचण्डाय निर्धारितं वर्तते। प्रतिनिधिसभायां विश्वासस्य मतस्य कृते प्रस्तुतः प्रस्तावः संसदि पारितो नाभवदिति सूचनायाः सभामुखात् प्राप्तेः पश्चात् राष्ट्रपतिना पौडेलेन मन्त्री परिषदः कार्यभारः प्रचण्डाय निर्धारितो वर्तते। चितवन जनपदस्य सिमलताल स्थाने भूस्खलनेन प्रवहणात् विलुप्तस्य बसयानद्वयस्य तत्र स्थितानां यात्रिणां च अन्वेषणोद्धार कार्ये संलग्नानां जलविप्लवपुरानां समूहेन अद्य पुनः अष्टवादने अन्वेषण कार्यम् विधीयते। ह्यसायं यावत् अन्वेषणम् विहितम् सदपि उद्धार कार्यम् सफलम् सम्भूतम् नासीत्। त्रिशूली नद्याः प्रवाहस्य उच्चबिन्दौ सत्वात् अन्वेषणे काठिन्यम् जायमानम् अस्तीति चितवन जनपदस्य प्रहरी प्रमुख भीषराज जारी अवोचत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड जलविप्लव भूस्खलनानां कारणेन देशस्य विभिन्न भागेष् जातां जनधनयोः क्षतिं प्रति दुःखं व्यनक्ति। प्रधानमन्त्रिणा प्रचण्डेन सामाजिक सञ्जालस्य माध्यमेन दैवी विपदः सम्भूतायाः क्षतेः अथ च चितवन जनपदस्य सिमलतालस्थाने बसयानस्य दुर्घटनायाम् आसन्न षष्ठेः जनानां मृत्युः घटनायाः समाचारेण आत्मना दुःखम् अनुभूतमिति उक्तम् वर्तते। एवमेव नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवाफिदेन च सिमलताल घटनाया आत्मना दुःखम् अनुभूतम् अस्तीति उक्तम् वर्तते। अद्य एकादशोत्तर द्विशततमी भानु जयन्ती विविधानां साहित्यिक कार्यक्रमाणां आयोजनापूर्वकं समायोज्यमाना अस्ति। नेपाली भाषायाः आदिकविना भानुभक्ताचार्येण नेपाली भाषायाः माध्यमेन राष्ट्रिय एकतायै विहितस्य योगदानस्य स्मरण पुरस्सरं एकादशोत्तर द्विशततमी भानु जयन्ती समाद्रियमाणा वर्तते। नेपालात् बहिः भारतस्य दार्जीलिङ सिक्किम प्रभृति भागेष् च भानु जयन्ती भव्यतया समायोज्यते। एकसप्तत्युत्तर राष्ट्रदशशततम वैक्रमादस्य आषाढ मासस्य उनत्रिंशे दिवसे तनहु जनपदस्य सुदी रम्घा ग्रामे लब्धजन्मा नेपाली भाषायाः आदिकविः भानुभक्ताचार्यः नेपालस्य राष्ट्रविभूतिर्वर्तते। जातीय कविः इति सम्मानेन अलंकृतेन आदिकविना भानुभक्तेन संस्कृत भाषायाः अध्यात्म रामायणम् आधृत्य सरस सरल सुबोध नेपाली भाषायां रामायणं विरचय्य नेपाली जनतायाः प्रतिगृहम् एतत् प्राप्य च अशेषमपि राष्ट्रं भाषिक रूपेण एकीकर्तुम् अद्वितीया भूमिका निर्व्यूढा वर्तते। आदिकविना भानुभक्तेन रामायणात् अतिरिक्तान् प्रश्नोत्तर भक्तमाला वधुशिक्षा रामगीता प्रभृति ग्रन्थान् स्फुट कविताश्च विलिख्य नेपाली साहित्यस्य श्रीवृद्धे महद् योगदानं प्रदत्तम् विद्यते। नेपाल प्रज्ञा प्रतिष्ठानेन भानु प्रतिष्ठानस्य सहकारेण आयोजितया प्रभात परिक्रमया सहितायाः शोभायात्रायाः अनन्तरम् आदिकविः भानुभक्ताचार्यस्य एकादशाधिक द्विशत तम जन्म जयन्त्याः अवसरे अद्य प्रातः काष्ठमण्डपस्य कमलादि वर्तिनी प्रज्ञा प्रतिष्ठाने अवस्थितायां भानु प्रतिमायां माल्यार्पणं विधीयते। कास्की जनपदस्य पोखरा महानगरपालिकायाः उनविंशवडा क्षेत्रस्य पुरनचौर क्षेत्रस्य तल्लाकोट स्थाने परह्य रात्रौ भूस्खलने निपत्य मृतानां सप्तानां जनानां मध्ये पञ्चानां जनानां सामूहिक रूपेण दाह संस्कारः विहितो वर्तते। पुरनचौर स्थानस्य कुलबहादुर परियार इत्यस्य गृहे परह्य रात्रौ भूस्खलनेन पूरिते सति तस्य परिवारस्य षड्भिः जनैस्सह सप्त जनानां मृत्युः सम्भूतः आसीत्। अविरल वृष्टेः कारणेन दुरापन्नासु जलविप्लव भूस्खलन जलनिमग्नतासु निपत्य अधुनावधि त्रिउत्तरैकशतं जनाः मृताः सन्ति। गत ज्येष्ठ मासस्य अष्टाविंशात् दिवसात् ह्यस्तनं दिवसं यावत् विभिन्नेष् स्थानेष् दुरापन्नासु जलविप्लव भूस्खलनादिषु घटनासु निपत्य त्रिउत्तरैकशतं जनाः मृताः इति प्रहरी प्रधान कार्यालयेन ज्ञापितमस्ति। जलविप्लव भूस्खलन जलनिमग्नतादिषु निपत्य काष्ठमण्डप उपत्यकायाम् एको जनः, कोशी प्रदेशे एकोनविंशतिः, मधेश प्रदेशे पञ्च, बागमती प्रदेशे षड्, गण्डकी प्रदेशे अष्टात्रिंशत्, लुम्बिनी प्रदेशे त्रयोविंशतिः, कर्णाली प्रदेशे चत्वारः, सुदूरपश्चिम प्रदेशे सप्त, चेति आहत्य त्र्यधिकशतं जनाः मृताः सन्ति इति केन्द्रीय प्रहरिणा ज्ञापितं वर्तते। काष्ठमण्डप उपत्यकायां त्रयोजनाः, कोशी प्रदेशे एकत्रिंशत्, मधेश प्रदेशे अष्टौ, बागमती प्रदेशे चत्वारः, गण्डकी प्रदेशे अष्टाविंशतिः, लुम्बिनी प्रदेशे नवजनाः, कर्णाली प्रदेशे पञ्चदश जना, सुदूरपश्चिम प्रदेशे एकादश, चेति आहत्य नवोत्तरैकशतं जना आहता वर्तन्ते। जलविप्लव भूस्खलन हि च त्रीणि सहस्राणि पञ्चशतं सप्तचत्वारिंशच्च गृहपरिवारा विस्थापिता सन्ति इति केन्द्रीय प्रहरिण प्रवक्ता प्रहरी नायब महानिरीक्षक दानबहादुर कार्की अज्ञापयत्।